सत्प्रत्ययः किं नु विहाय सन्तं हृद्येष चिन्तारहितो हृदाख्यः कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र दृढैव निष्ठा मृत्युञ्जयं मृत्युभियाश्रितानाम् अहं मतिर्मृत्युमुपैति पूर्वम् अथ स्वभावादमृतेषु तेषु कथं पुनर्मृत्युदियोऽवकाशः सर्वैर्निदानं जगदोहमश्च वाच्यः प्रभुः कश्चिदपारशक्तिः चित्रेत्र लोक्यं च विलोकिता च पटः प्रकाशोऽप्यभवत् स एकः आरभ्यते जीवजगत्परात्मा तत्त्वाभिधानेन मतं समस्तम् इदं त्रयं यावदहं मतिस्यात् सर्वोत्तमाहं मतिशून्यनिष्ठा सत्यं मृषा वा चिदिदं जडं वा दुःखं सुखं वेति मुदा विवादः अदृष्टलोकानिरहं प्रतीतिर्निष्ठा विकल्पा परमाखिलेष्टा सरूपबुद्धिर्जगदीश्वरे च सरूपधीरात्मनि यावदस्ति अरूप आत्मा यदि कः प्रपश्येत् सा दृष्टिरेकानवधिर्हि पूर्णा यत्पञ्चकोशात्मकमस्ति देहं तदन्तरा किं भुवनं च कास्ति देहं विना पञ्चविधं तदेतत् पश्यन्ति के वा भुवनं भणन्तु शब्दादिरूपं भुवनं समस्तं शब्दादिसत्तेन्द्रियवृत्तिभास्या सत्तेन्द्रियाणां मनसो वशे स्यात् मनोमयं तद्भुवनं वदामः धिया सहोदेति धियास्तमेति लोकस्ततो धी प्रविभास्य एषः धीलोकजन्मक्षयधामपूर्णं सद्वस्तुजन्मक्षयशून्यमेकम् भवन्तु सद्दर्शनसाधनानि परस्य नामाकृतिभिः सपर्याः सद्वस्तुनि प्राप्ततदात्मभावा निष्ठैव सद्दर्शनमित्यवेहि द्वन्द्वानि सर्वाण्यखिलास्त्रिपुट्यः किञ्चित् समाश्रित्य विभान्ति वस्तु तन्मार्गणे स्याद् गलितं समस्तं न पश्यतां सच्चलनं कदापि विद्या कथं भाति न चेदविद्या विद्यां विना किं प्रविभात्यविद्या द्वयं च कस्येति विचार्यमूल स्वरूपनिष्ठा परमार्थविद्या बोद्धारमात्मानम जानतो यो बोधः स किं स्यात् परमार्थबोधः बोधस्य बोध्यस्य च संश्रयं स्वं विजानतस्तद्वितयं विनश्येत् निद्रा न विद्या ग्रहणं न विद्या गृह्णाति किञ्चिन्न यथार्थबोधे निद्रापदार्थ ग्रहणेतरा स्यात् चिदेव विद्या विलसन्त्यशून्या सत्यश्चिदात्मा विविधाकृतिश्चित् सिद्ध्येत् पृथक् सत् यचितो न भिन्ना भूषाविकारः किमु सन्ति सत्यं विना सुवर्णं पृथगत्र लोके तद्युष्मदोरस्मदि सम्प्रतिष्ठा तस्मिन् विनष्टे स्मदि मूलबोधात् तद्युष्मदस्मन्मतिवर्जितैका स्थितिर्ज्वलन्ती सहजात्मनः स्यात् भूतं भविष्यच्च भवत् स्वकाले तद्वर्तमानस्य विहाय तत्त्वं हास्यान किं स्यात् गतभावि च विनैकसंख्यां गणनेव लोके क्व भाति दिक्कालकथा विनास्मान् दिक्काललीले हवपूर्वयं चेत् न क्वापि भामो न कदापि भामो वयं तु सर्वत्र सदा च भामः देहात्मभावे ज्ञजडौ समानौ एकस्य देहे हृदि दीप्त आत्मा आक्रम्य देहं च जगच्च पूर्णः परस्य मेयं तनुमात्रमात्मा अज्ञस्य विज्ञस्य च विश्वमस्ति पूर्वस्य दृश्यं जगदेव सत्यं परस्य दृश्याश्रयभूतमेकं सत्यं प्रपूर्णं प्रविभात्यरूपं विधेप्रयत्नस्य च कोऽपि वादः तयोर्द्वयोर्मूलमजानतां स्यात् विधेप्रयत्नस्य च मूलवस्तु संजानतां नैव विधिर्नयत्नः यदीशुतुर्वीक्षणमीक्षितारम् अवीक्ष्य तन्मानसिके क्षणं स्यात् न द्रष्टुरन्यः परमोहितस्य वीक्षास्वमूले प्रविलीय निष्ठा आत्मानमीक्षेत परं प्रपश्येत् इत्यागमोक्तेः सुलभो न भावः नात्मैव दृश्यो यदि काकथेशे स्वयं तदन्नी भवनं तदीक्षा धिये प्रकाशं परमो वितीर्य स्वयं धियोऽन्तः प्रविभाति गुप्तः धियं परावर्त्य धियोऽन्तरेत्र संयोजनान्येश्वरदृष्टिरन्या न वक्ति देहोऽहमिति प्रसुप्तौ न कोऽपि नाभूवमिति प्रवक्ति यत्रोदिते सर्वमुदेति तस्य धियाहमशोधय जन्मदेशं देहो न जानाति सतो न जन्म देहप्रमाणोऽन्य उदेति मध्ये अहं कृतिग्रन्थिविबन्धसूक्ष्म शरीरचेतो भवजीवनामा रूपोद्भवो रूपततिप्रतिष्ठो रूपाशनोऽधूतगृहीतरूपः स्वयं विरूपस्वविचारकाले धावत्यहङ्कारपिशाच एषः भावेऽहमः सर्वमिदं विभाति लयेऽहमो नैव विभाति किञ्चित् तस्मादहं रूपमिदं समस्तं तन्मार्गणं सर्वजयाय मार्गः सत्यास्थितिर्नाहमुदेति यत्र तच्चोदयस्थानगवेषणेन विना न नश्येद्यदि तन्न नश्येत् स्वात्मैक्यरूपा कथमस्तु निष्ठा कूपे यथा गाढजले तथान्तः निमज्ज बुद्ध्याशितया नितान्तं प्राणं च वाचं च नियम्य चिन्वन् विन्देन्निजाहं कृतिमूलरूपं मौनेन मज्जन्मनसा स्वमूल चर्चैव सत्यात्मविचारणं स्यात् एषोऽहमेतन्न मम स्वरूपम् इति प्रमासत्य विचारणाङ्गम् गवेषणात् प्राप्य हृदं तरं तत् प्रतेदहन्ता परिभुग्नशीर्षा अथाहमन्यत् स्फुरति प्रकृष्टं नाहं कृतिस्तत् परमेव पूर्णम्। अहं कृतिं यो लसति ग्रसीत्वा किं तस्य कार्यं परिशिष्टमस्ति किञ्चिद् विजानाति सनात्मनोऽन्यत् तस्य स्थितिं भावयितुं क्षमः कः आह स्फुटं तत्त्वमसीति वेदः तथाप्यसंप्राप्य परात्मनिष्ठां भूयो विचारो मतिदुर्बलत्वं तत्सर्वदा स्वात्मतया हि भाति न वेद्म्यहं मामुत वेद्म्यहं माम् इति प्रवादो मनुजस्य हास्यः दृग्दृश्यभेदात् किमयं द्विधात्मा स्वात्मैकतायां हि धियां न भेदाः हृत्प्राप्य सद्धामनिजस्वरूपे स्वभावसिद्धेनुपलभ्यनिष्ठां मायाविलासः सदसत्स्वरूप विरूपनानैकमुखप्रवादाः सिद्धस्य वित्तिः सत एव सिद्धिः स्वप्नोपमानाः खलु सिद्धयोन्याः स्वप्नप्रबुद्धस्य कथं नु सत्यः सति स्थितः किं पुनरेति मायाम् सोऽहं विचारो वपुरात्मभावे साहाय्यकारी परमार्गणस्य स्वात्मैक्यसिद्धौ स पुनर्निरर्थो यथा नरत्वप्रमितिर्नरस्य द्वैतं विचारे परमार्थबोधे त्वद्वैतमित्येष न साधुवादः गवेषणात् प्राग्दशमे विनष्टे पश्चाच्च लब्धे दशमत्वमेकम् करोमि कर्मेति नरो विजानन् बाध्यो भवेत् कर्मफलं च भोक्तुं विचारधूता हृदि कर्तृता चेत् कर्मत्रयं नश्यति सैव मुक्तिः बद्धत्वभावे सति मोक्षचिन्ता बन्धस्तु कस्येति विचारणेन सिद्धे स्वयं स्वात्मनि नित्यमुक्ते क्व बन्धचिन्ता क्व च मोक्षचिन्ता रूपिण्यरूपिण्युभयात्मिका च मुक्तिस्त्रिरूपेति विदो वदन्ति इदं त्रयं या विविनक्त्यहं धीः तस्याः प्रणाशः परमार्थमुक्तिः सद्दर्शनं द्राविडवाङ्निबद्धं महर्षिणा श्रीरमणेन शुद्धं प्रबन्धमुत्कृष्टममर्त्यवाण्याम् अनुद्यवासिष्ठमुनिर्व्यतानीत् सत्तत्त्वसारं सरलं दधाना मुमुक्षुलोकायमुदं ददाना अमानुषश्रीरमणीयवाणी मयूखभित्तिर्मुनिवाग्विभाति।